गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वरः गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्माकं न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र मनसः लक्षणं तत्र मनसः लक्षणं तत्र लक्षणे तत्र धलद्वयम् आसीत् अपि तत्र धलद्वयं यत्र अस्ति तत्र धलसार्थक्यम् अस्माभिः करणीयम् इति नियमः अस्ति अतः तत्र धलद्वयं तत्र वयं पठितवन्तः तत्र मनसः लक्षणवाक्यं किम् आसीत् तत्र अनीता भगिनी स्मारयति वा मनसः लक्षणवाक्यं किम् आसीत्
आम् सुखादि उपलब्धिसाधनानि साधनम् इन्द्रियं मनः इति अस्ति
मनः इति समीचीनं हा तर्हि तत्र सुखादि उपलब्धि
साधनम्
साधनम् इति एकं दलम् अपि इन्द्रियम् इति अन्यदलम् इति मनः इति आसीत् हा समीचीनं हा तर्हि तत्र इदानीं तत्र धलद्वयम् अस्ति चेत् तत्र अस्माभिः किं करणीयं तत्र धलसार्थक्यम् इति उच्यते धनसार्थक्यं नाम किं तत्र विमला भगिनी किञ्चित् वदति वा
यदि किमपि वस्तोः लक्षणं वदनीयं वक्तव्यं तदा तस्य लक्ष्ये विद्यमानाः गुणाः अस्ति वा नास्ति वा इति चिन्तनीयम् अपि च यदा कदापि केवलम् एकमेव गुणः अस्ति यथा पृथिव्य गन्धवती पृथिवी इत्युक्ते पृथिव्यामेव गन्धः अस्ति परन्तु वायुः विपरीतवान् स्पर्शवान् शीतस्पर्शवान् इति अस्ति तत्र दलद्वयमस्ति केवलं शीतस्पर्श इत्युक्ते स्पर्श इत्युक्ते शीतस्पर्श भूमौ अस्ति उष्णस्पर्शौ तेजसि अस्ति परन्तु तत्र रूपं नास्ति एतत् दलद्वयं
दलद्वयं समीचीनं नाम तत्र दलद्वयं यत्र अस्ति तत्र वयं जानीमः तत्र कीदृशः दोषः वर्तते कः दोषः वर्तते अतिव्याप्तिदोषः वर्तते समीचीनं भगिनि हा तथैव अस्ति तत्र एकं दलम् एव अस्ति चेत् तत्र अतिव्याप्तिदोषः वर्तते इति अस्ति समीचीनं हा अस्तु उत्तमं हा अपि तत्र हा तर्हि तत्र अत्र इन्द्रियम् इति एकं दलम् अपि सुखादि उपलब्धिसाधनम् इति अस्ति दलद्वयम् अस्ति अपि तत्र केवलं तत्र गन्धवती पृथ्वी इति एकं रूपम् आसीत् तत्र गन्धवती तत् समीचीनं वा गन्धवती इति एकं रूपम् आसीत् अन्यत् रूपमपि वयं दृष्टवन्तः तत्र गन्धवत्वं
पृथिव्याः लक्षणमिति
गन्धवत्वं पृथिव्याः लक्षणम् इति तर्हि तयोः मध्ये कः भेदः तत्र नाम वयं किम् इच्छामः तत्र अर्थविषये तु सामान्यमस्ति नाम गन्धवती पृथ्वी इत्युक्ते तत्र पृथ्वी गन्धवती इति अस्ति नाम तत्र गन्धवत्वं पृथिव्याम् अस्ति इति हा किन्तु तत्र यदि पृथिव्याः लक्षणमिति वदामः तत्र लक्ष्यमस्ति
लक्षण
हा
यदि केवलं इति वदामः तर्हि पृथिव्याम् अन्ये अपि गुणाः सन्ति वा न वा इति चिन्तनीयम्
तर्हि तत्र अस्माकं कार्यं सर्वदा किम् अस्ति लक्ष्यम् इति किमपि पदार्थः अस्ति लक्ष्यम् अपि लक्ष्ये वयं विद्यमानः तर्हि लक्ष्ये लक्षणं भवेत् इति अस्माकं चिन्तनं तत्र लक्षणं लक्ष्ये भवेत् इति तत्र यदि वदामः तत्र गन्धवती पृथ्वी तत् कीदृशं भवति तत्र उन्नतः वृक्षः इति तादृशरूपम् अस्ति. उन्नतः वृक्षः इति तादृशरूपम् अस्ति. किन्तु तत्र वृक्षः कीदृशः इत्युक्ते तत्र तस्मिन् विद्यमानः धर्मः कः? उन्नतः वृक्षः इत्युक्ते
तस्मिन्
औन्नत्यम् अस्ति. तत्र भाववाचकः औन्नत्यम् इति. तथैव तत्र वयं तत्र पृथ्वी गन्धवती अस्ति, तर्हि पृथिव्यां लक्षणं पृथिव्यां भवति इति कृत्वा तत्र गन्धवत् इति पृथ्वी गन्धवत् इति तस्य श्रीलिङ्गरूपं गन्धवती. गन्धवत्वं भाववाचकपदं, तत् लक्षणम् इति स्वीकृत्य लक्षी अस्ति इति सम्यक् रीत्या अवगन्तुं शक्नुमः. अतः तत्र उन्नतः वृक्षः इति अर्थे तत्र औन्नत्यम्, उन्नतः वृक्षः इति वाक्यस्य अर्थः औन्नत्यम् इति गुणः वृक्षे वर्तते. अपि येन एषः वृक्षः अन्येभ्यः भिद्यते इति, नाम अस्मिन् वृक्षे औन्नत्यम् अस्ति, अन्येषु वृक्षेषु औन्नत्यं नास्ति इति अर्थः तस्मिन् तत्र तस्मिन् सन्दर्भे. तथैव तत्र लक्षणं लक्ष्ये भवेत्, सजातीयेषु भवेत्, विजातीयेषु मा भूत् इति आसीत् अस्माकं नियमः. हा समीचीनं विमलभगिनी, धन्यवादः. हा तत्र नूतनतया शुभदा भगिनी नमस्कारः, शोभा भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः. पुष्पा भगिनी नमस्कारः.
नमस्कारः महोदय.
हा मृणालिनी भगिनी नमस्कारः. नमस्कारः. चन्द्रमती भगिनी नमस्कारः. जयलक्ष्मी भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः. योगेन्द्रमहोदय नमस्कारः.
नमस्कारः महोदय.
नमस्कारः. अस्तु, इदानीं तर्हि तत्र यथा तत्र उन्नतः वृक्षः इत्युक्ते औन्नत्यं वृक्षः वृक्षे अस्ति इति, तथैव यदि वयं वदामः तत्र इन्द्रियं मनः इति, इन्द्रियम् इति लक्षणम् अस्ति, मनसः लक्षणम् इत्युक्ते तत्र मनसि किम् अस्ति तत्र? शुभदा भगिनी, यदि उन्नतः वृक्षः इति वदामः औन्नत्यं वृक्षे अस्ति, तथैव इन्द्रियं मनः इति वदामश्चेत् मनसि किम् अस्ति? इन्द्रियत्वम् अस्ति. अतः तत्र इन्द्रियं मनः इति एतद् लक्षणवाक्यम् अस्ति चेत् अन्यरीत्या वदामश्चेत् इन्द्रियत्वं
मनसि अस्ति.
इन्द्रियत्वं मनसि अस्ति, इन्द्रियत्वं मनसः लक्षणम् इति अपि वक्तुं शक्नुमः, खलु? नाम इन्द्रियत्वं मनसि अस्ति, अतः लक्षणरूपे इन्द्रियत्वं स्वीकर्तुं शक्नुमः. इन्द्रियत्वं मनसः लक्षणम् इति एकं दलं भवति, अन्यद् दलमपि आवश्यकम् अस्ति, किन्तु इन्द्रियत्वं मनसि अस्ति, एतत्तु सत्यम्. अन्यत्र अस्ति वा इन्द्रियत्वं? इन्द्रियत्वम् इन्द्रियत्वम् अन्यत्र नास्ति वा? पञ्चेन्द्रियेषु अस्ति, पञ्चेन्द्रियस्तु अस्ति. अतः तत्र केवलम् इन्द्रियत्वं मनसः लक्षणम् इति वदामश्चेत् तत्र दोषः भवति, नाम मनसि अस्ति, अन्यत्र अपि अस्ति, तर्हि तत्र अतिव्याप्तिदोषः भवति. अतः केवलम् एकमेव दलं, नाम इन्द्रियत्वं मनसः लक्षणम् इति एकमेव दलम् अस्ति चेत् अतिव्याप्तिदोषः भवति, तेन लक्षणवाक्यं समीचीनं न भवति, दोषः अस्ति इति कृत्वा. अतः अन्यत् दलमपि आवश्यकं, येन तत्र वृत्तित्वं, तत्र इन्द्रियत्वं बृहत् अस्ति तावत् वयं न इच्छामः, केवलं यत् मनसि अस्ति तदेव वयं वक्तुम् इच्छामः इति कृत्वा इन्द्रियत्वं तेन पर्याप्तं नास्ति, अतः अन्यद्दलमपि आवश्यकम्. तदस्ति सुखादि उपलब्धिसाधनम्. तत् यथा इन्द्रियं मनसः लक्षणम्, इन्द्रियं मनः इति तस्य परिवर्तनं कृत्वा इन्द्रियत्वं मनसः लक्षणम् इति उक्तवन्तः, तथैव तत्र सुखादि उपलब्धिसाधनम् इति स्वीकृत्य तदपि वयं सुखादि उपलब्धिसाधनं, तत्र मकारस्य स्थाने तत्र लक्षणमिति वक्तुम् इच्छामश्चेत् साधनत्वं मनसः लक्षणम्। अपि धडद्वयं स्वीकृत्य इदानीं किं भवति, इन्द्रियत्वम् अपि सुखादि उपलब्धिसाधनत्वम् इति तत्र तत्र इन्द्रियत्वं सुखादि उपलब्धिसाधनत्वम् इति तत्र दलद्वयम् अस्ति इदानीं। तर्हि तत्र एकं दलमस्ति एतत्, द्वितीयदलम् अस्ति इन्द्रियत्वं मनसः लक्षणं। नाम इदानीं तत्र इन्द्रियत्वं, केवलम् इन्द्रियत्वं वदामश्चेत् तत्र अतिव्याप्तिदोषः वर्तते इति दृष्टवन्तः। इदानीं सुखादि उपलब्धिसाधनत्वं केवलं तद् वदामश्चेत् तत्र अतिव्याप्तिदोषः अथवा अव्याप्तिदोषः दोषः वर्तते न वा इति द्रक्ष्यामः। किन्तु तस्मात् प्राक् गतवर्गे वयं तत्र कारणस्य त्रैविध्यं ज्ञातवन्तः। तत्र कारणस्य तत्र समवायिकारणम् इति प्रथमविध अस्ति इति ज्ञातवन्तः। समवायिकारणं तत्र प्रायशः तत्र समवायि इति प्रायशः कारणम् इति मन्ये समवायिकारणं। हा तर्हि तत्र अस्तु तत्र हा नरसिंहमहोदय, तत्र समवायिकारणं नाम किं, तत्र कारणमस्ति अपि अन्यः तत्र समवायिकारणस्य
असमवायिकारणं
नाम किं, समवायिकारणं
यत् कारणं
किमपि कार्यमस्ति
तत्र तत् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यम् उत्पादयति, तत् कारणं समवायिकारणमस्ति।
अतः तत्र तादृशरूपं न एतावत् वयं न अतीतवन्तः। तर्हि तत्र यस्मिन् पदार्थे कार्यं समवायसम्बन्धेन भवति तत् समवायिकारणमिति वक्तुं शक्नुमः वा? तर्हि तत्र यस्मिन् कारणे समवायसम्बन्धेन कार्यं भवति सः समवायिकारणम् इति वक्तुं शक्नुमः। तर्हि तत्र नरसिंहमहोदय तत्र उदाहरणं वदतु, तत्र समवायिकारणस्य एकम् उदाहरणं।
तस्य उदाहरणमस्ति महोदय कपालघट, कपालः समवायसम्बन्धेन घटम् उत्पादयति, अतः कपालः समवायिकारणं भवति घटस्य उत्पादनस्य कृते।
घटस्य समवायिकारणम् अस्ति कपालः, समीचीनं महोदय। घटः समवायसम्बन्धेन कपाले अस्ति, अपि तत्र कपालः कारणमस्ति घटं प्रति, अतः तत्र कपालः घटस्य समवायिकारणं भवति। समीचीनं महोदय। अस्तु इदानीं तत्र पुष्पा भगिनी, तत्र पटः इति तस्य समवायिकारणं किम्? पटः अस्तु। योगेन्द्रमहोदय, पटः पटस्य समवायिकारणं?
प्रायः तन्तुः।
तन्तुः, समीचीनं महोदय, तथैव अस्ति।
तन्तुलानि महोदय,
तन्तवः, समीचीनं, तन्तवः, तन्तवः पटस्य समवायिकारणं। पटः समवायसम्बन्धेन तन्तुषु वर्तते इति कृत्वा तत्र पटस्य समवायिकारणमस्ति, तन्तुः अथवा तन्तवः समवायिकारणानि भवन्ति इति अस्ति। समीचीनं। हा अस्तु अग्रे शोभा भगिनी, तत्र नीलरूपम् इति घटस्य नीलरूपम्, अथवा रक्तरूपं, तस्य समवायिकारणं किम् अस्ति?
नीलरूपस्य समवायिकारणं गुणः इति
समीचीनं। तत्र नीलरूपं गुणः अस्ति, गुणः कस्मिन् पदार्थे
समवायसम्बन्धेन अस्ति घटे
घटे अस्ति
घटे अस्ति
घटे अस्ति तर्हि तत्र घटः घटः घटं विना तत्र नीलरूपं भवति वा
न भवति अतः तत्र
कारणं वा
घटं नीलरूपस्य कारणं भवति
तर्हि नीलरूपं कारणे घटे कारणे समवायसम्बन्धेन अस्ति
अस्ति
अतः घटः नीलरूपस्य समवायि कारणं
समवायिकारणं क्षम्यतां हा नीलरूपं घटे अस्ति समवायसम्बन्धेन अस्ति अपि च घटं विना भवितुं न अर्हति अतः तस्य कारणं घटे
अस्ति
अतः घटः तस्य कारणम् अस्ति अतः समवायिकारणं भवति घटः नीलरूपस्य कृते
नीलरूपस्य कृते समीचीनं इदानीं तत्र समीचीनम् इदानीम् अन्यत् उदाहरणं तत्र जयलक्ष्मी भगिनी इदानीं तत्र शब्दः इति अस्ति शब्दस्य समवायिकारणं किम् इति वक्तुं शक्नुमः वा
शब्दगुणकम् आकाशम् इति
अस्ति समीचीनम्
आकाशशब्दयोः मध्ये अत्र अवयवालय सम्बन्धः अस्ति अतः
शब्दः तत्र शब्दस्य अधिकरणं किम् अस्ति
श्रोत्रेन्द्रियं
न शब्दस्य तत्र
आकाशः
आकाशः आकाशः अस्ति समीचीनं तर्हि आकाशः अस्ति शब्दस्य अधिकरणम् अपि शब्दः कीदृशपदार्थः तत्र द्रव्यं वा गुणः
गुणः अस्ति
गुणः अस्ति गुणः अस्ति तर्हि गुणः गुणः गुणस्य आश्रयः सर्वदा द्रव्यं
द्रव्यं
द्रव्यम् अपि गुणः द्रव्ये केन सम्बन्धेन भवति
संयोगसम्बन्धः
संयोगः गुणगुणिनोः सर्वदा
समवायसम्बन्धः
समवायसम्बन्धः तत्र अवयव अवयविनोः गुणगुणिनोः जातिव्यक्तयोः इति वयं दृष्टवन्तः खलु क्रियाक्रियावतोः तत्र सर्वदा तत्र समवायसम्बन्धः अत्रापि समवायसम्बन्धः अस्ति इति कृत्वा तर्हि तत्र शब्दः समवायसम्बन्धेन आकाशे अस्ति आकाशं विना शब्दः भवति वा
न भवति
आकाशः शब्दस्य कारणम् इति तत्र साधितुं शक्नुमः वा
इत्युक्ते शब्दगुणकम् आकाशम्
इति अस्ति किन्तु नाम आकाशः कारणमस्ति वा शब्दं प्रति
कारणमस्ति
कारणमस्ति नाम आकाशः नास्ति चेत् तत्र शब्दः न भवति खलु
न भवति
तत्र निकषत्रयम् अस्ति अस्माकं तत्र कार्यादिकरणे भवेत् कारणं कार्यादिकरणे भवेत् पूर्वस्मिन् क्षणे भवेत् सर्वदा भवेत् इति निकषत्रयम् अस्ति खलु तत्सर्वम् अत्र अस्ति न वा इति परिशीलनं कृत्वा आम् अस्ति इति वक्तुं शक्नुमः खलु तत्र निकषत्रयं तर्हि तत्र आकाशः शब्दस्य कारणम् अस्ति अपि शब्दः आकाशे समवायसम्बन्धेन अस्ति तर्हि यत्र कार्यं यस्मिन् कारणे कार्यं समवायसम्बन्धेन अस्ति तत् कारणं भवति समवायिकारणं
समवायिकारणं
तर्हि तत्र अत्र आकाशः इति कारणं शब्दस्य आकाशः इति कारणम् अपि शब्दः आकाशे कारणे आकाशे समवायसम्बन्धेन अस्ति
सत्यं
तर्हि आकाशः शब्दस्य
समवायिकारणं
समवायिकारणम् इति भवति समीचीनम् अस्तु नूतनतया तत्र धनश्री भगिनी नमस्कारः अस्तु अन्य कोऽपि तत्र नमस्कारः भगिनि चन्द्रमती भगिनी तत्र स्पर्शः इति अस्ति स्पर्शः तत्र तत्र स्पर्शः वायुः इति वायुः अस्ति इति स्वीकुर्मः तत्र स्पर्शः वायो केन सम्बन्धेन अस्ति
समवायसम्बन्धेन
अस्ति हा अपि तत्र वायु विना तत्र वायुं विना तत्र स्पर्शः भवति वा नाम एषः स्पर्शः यस् यत् यत् वा वायो अस्ति केवलम् एषः स्पर्शः अन्यः स्पर्शः न
तत् वायुः एव भवति
हा हा अतः तत्र यदि वायुः नास्ति चेत् आश्रयं नास्ति चेत् गुणः तिष्ठति वा गुणः भवति वा स्पर्शः वायुः अस्ति वायुः आश्रयः तत्र वायुः कारणम् अस्ति वा स्पर्शस्य कारणं नाम यत्र यदि वायुः नास्ति चेत् एषः स्पर्शः न भवति खलु चन्द्रमती भगिनि
सत्यं
हा तर्हि वायुः कारणमिति वक्तुं शक्नुमः खलु स्पर्शं प्रति
स्पर्शस्य कारणं वायुः
वायुः हा अपि स्पर्शः केन सम्बन्धेन भवति वायौ
समवायसम्बन्धेन गुणः अस्ति
गुणः अस्ति गुणः अस्ति अतः तत्र स्पर्शः वायौ
गुणगुणिनोः
वायु हा गुणगुणिनोः तत्र
समवायसम्बन्धेन
अतः तत्र स्पर्शस्य समवायिकारणं किमस्ति
वायुः
वायुः इति अस्ति हा अस्तु समीचीनम् अतः समवायिकारणं समीचीनं भगिनि अत्र अतः तत्र समवायिकारणम् अस्ति इति ज्ञातवन्तः अपि उदाहरणानि अपि परिशीलितवन्तः तत्र प्रथम उदाहरणं घटं घटः अस्ति द्वितीय उदाहरणं पटः अस्ति तृतीय उदाहरणं नीलरूपम् अस्ति चतुर्थ उदाहरणं शब्दः अस्ति पञ्चम उदाहरणं स्पर्शः अस्ति तत्र समवायिकारणानि इति ज्ञातवन्तः अपि द्वितीयविधकारणम् इति किम् आसीत् तत्र प्रेमलता भगिनी द्वितीयविधकारणम् एक प्रथमम् अस्ति तत्र समवायिकारणं द्वितीयम्
असमवायिकारणम्
असमवायिकारणं हा तर्हि तत्र समवायिकारणं प्रथमविधम् आसीत् अपि द्वितीयविधं कारणमस्ति असमवायिकारणम् असमवायिकारणम् असमवायिकारणं कुत्र भवति
तस्य गुण अथवा क्रिया क्रियायां
समीचीनं तत्र असमवायिकारणं सर्वदा गुणः भवति अथवा क्रिया भवति क्रिया भवति तत्र प्रथमतया कारणमस्ति कारणमस्ति गुणरूपकारणम् अथवा क्रियारूपकारणम् अस्ति अपि एषः तत्र गुणः वा क्रिया वा तत् तस्य आधारः तस्य आश्रयः कः भवति
समवायिकारणं
हा इति नाम यः तत्र असमवायिकारणं किम् अस्ति तत्र असमवायिकारणं प्रथमतया कारणम् अस्ति कार्यं प्रति कार्यं प्रति कारणम् अस्ति अपि तत्र कार्यं समवायिकारणे भवति तत्र समवायसम्बन्धेन भवति असमवायिकारणमपि कारणमस्ति कार्यं प्रति किन्तु तस्य आश्रयः समवायिकारणमेव साक्षात् कारणम् अपि अस्ति किन्तु तत्र सम्बन्धः नास्ति नाम एषः हा एतत् कार्यम् अस्मिन् कारणे केनापि सम्बन्धेन न भवति तावदेव किन्तु
हा
नाम तत्र क्षम्यतां केनापि सम्बन्धेन न भवति इति न वक्तुं शक्नुमः यतोहि तत्र तत्र हा समानाधिकरणं भवेत् हा अतः तत्र कार्यस्य अपि कारणस्य तयोः समानाधिकरणं भवेत् इति एकः नियमः अस्ति खलु हा अतः तत्र कार्यस्य अधिकरणं समवायिकारणं यदि एष एतत् अपि कारणमस्ति चेत् तस्य आश्रय अपि समवायिकारणमेव भवेत् अतः तत्र समवायिकारणम् इति अस्ति तत्र असमवायिकारणं समवायिकारणे अस्ति अपि गुणः अथवा का क्रिया इति कृत्वा अत्र अपि सम्बन्धः समवायः एव तर्हि अत्र अपि सम्बन्धसमवायः अत्र अपि समवायः एव सम्बन्धः अतः समवायिकारणे कार्यमपि समवायसम्बन्धेन तिष्ठति असमवायिकारणमपि समवायसम्बन्धेन एव तिष्ठति तर्हि इदानीं तत्र उदाहरणानि पश्यामः तत्र घटः इति अस्ति घटः इति कपाले अस्ति कपालः इति समवायिकारणं तर्हि तत्र असमवायिकारणं किम् इति उक्तवन्तः गतवर्गे
कपालद्वयस्य संयोगः
संयोगः हा कपालसंयोगः कपालसंयोगः एव तत्र असमवायिकारणम् इति अस्ति समीचीनं हा इति अस्ति समीचीनं भगिनि हा अस्तु इदानीं तत्र मृणालिनि भगिनि इदानीं तत्र पटः अस्ति
तन्तुषु
अस्ति तन्तव तर्हि तत्र असमवायिकारणं
तत्र तन्तुसंयोगः
तन्तुसंयोगः संयोगः एव तत्र संयोगः इति कीदृशपदार्थः
गतवर्गे गुणः इति उक्तवन्तः खलु
हा किन्तु तत् समीचीनं वा वयम् उक्तवन्तः किन्तु तत्
सम्यक्
न संयोगः इति कीदृशपदार्थः
संयोगः
गुणः अस्ति वा
तन्तुसंयोगः
न संयोगः संयोगः इति द्रव्ययोः संयोगः हस्तयोः संयोगः गुणः अस्ति वा
न क्रिया अस्ति
न संयोगः साक्षात् संयोगः
गुणः अस्ति
गुणः अस्ति
भगिनि तत्र पश्यतु सप्तमे पुटे पश्यतु तत्र गुणाः तत्र गुणानां विभजनं कृतम् अस्ति तत्र किं किम् अस्ति सप्तमे पुटे
पश्यामि
हा
रूपरसगन्धस्पर्शसङ्ख्या परिमाण तत् न
समीचीनं हा
तर्हि रूपरसगन्धस्पर्शसङ्ख्यापरिमाण पृथक्त्व संयोग विभाग
संयोग अस्ति खलु तर्हि
संयोग अस्ति
तर्हि संयोगः गुणः संयोगः गुणः अस्ति गुणः एव तत्र असमवायिकारणम् अस्ति तन्तूनां संयोगः परस्परसंयोगः एव तत्र पटस्य असमवायि कारणं भवति इति अस्ति समीचीनम् अस्तु समीचीनं भगिनि हा अस्तु इदानीं तत्र अग्रे धन्यवादः इदानीम् अग्रे सरामः तत्र हा इदानीम् अशोक् महोदय तत्र ज्ञानम् इति स्वीकुर्मः तर्हि हा ज्ञानम् इति स्वीकुर्मः ज्ञानम् इति पदार्थः कीदृशपदार्थः अशोक् महोदय
गुणः अस्ति
गुणः अस्ति नाम अत्र बुद्धिः इति रूपे गुणः अस्ति अपि एषः गुणः गुणस्य आश्रयः गुणः सर्वदा आश्रये तिष्ठति आश्रयः सर्वदा द्रव्यम् अस्ति अत्र आश्रयः कः
आत्मा
आत्मा तर्हि ज्ञानम् आत्मनि तिष्ठति तर्हि तत्र आत्मा कीदृशकारणम् अस्ति ज्ञानं प्रति ज्ञानस्य
समवायिकारणम्
समवायिकारणम् अस्ति तर्हि तत्र एषः एव तत्र आत्मा जीवात्मा वा परमात्मा वा तत्र समवायिकारणम् अस्ति ज्ञानस्य समवायिकारणं समीचीनं हा अस्तु इदानीं तत्र समवायिकारणे किमपि कोऽपि गुणः भवेत् ये यः गुणः कारणमस्ति ज्ञानं प्रति अपि तत्र सः तत्र असमवायिकारणं तत्र किं भवति अत्र
उदाहरणं पृच्छति वा?
न, तत्र ज्ञानस्य असमवायिकारणं किम् इति तत्र पूर्वं तत्र उदाहरणानि अन्यानि उदाहरणानि कृतवन्तः, किन्तु अत्र तत्र ज्ञानम् आत्मनि वर्तते, तत्र समवायसम्बन्धेन वर्तते इति कृत्वा आत्मा समवायिकारणम् अस्ति. हा, इदानीम् असमवायिकारणं किम् इति अपि वक्तुम् इच्छामः, किन्तु अन्य कोऽपि वदेत् तर्हि चिन्ता मास्तु महोदय. तर्हि तत्र
प्रायः यदि सुखम् अस्ति, अहं सुखम् अहं सुखी इति ज्ञानम् अस्ति, तर्हि सुखं ज्ञानस्य असमवायि कारणं.
हा, किन्तु तत्र केवलं तस्मिन् सन्दर्भे सः कारणरूपेण भवति, किन्तु यदि तत्र वयम् असमवायिकारणम् इति वदामः तत्र किं भवति, सर्वदा तत्र एषः सर्वदा भवेत् तत्र आत्मनि गुणरूपेण. दुःख इति समये तत्र सुखम् इति कारणं न भवति, अतः तत्र सुखम् इति असमवायिकारणरूपेण न वक्तुं न स्वीकर्तुं शक्नुमः. यदा यदा ज्ञानं भवति तदा तदा एषः गुणः भवेत्, अन्यः गुणः भवेत्.
सर्वज्ञानस्य कारणम् इति पृच्छति.
हा, इति हा, अतः तत्र सर्व यदा यदा इदानीं तत्र आत्मा इति तत्र जीवात्मा इति एव इदानीं तत्र इच्छा. आत्मा इत्युक्ते केवलं जीवात्मा इति विषये एव वदामः, तर्हि परमात्मा इति तस्य विषये मास्तु इदानीं. तर्हि तत्र जीवात्मा इति चिन्तयामः. तर्हि जीवात्मा इति अस्ति. हा, तत्र हा, तत्र विमला भगिनी तत्र किञ्चित् वदति वा, तत्र कदा भवति तत्र ज्ञानं, कदा ज्ञानस्य उत्पत्तिः तत्र
मनसा प्रत्यक्षं भवति.
हा, तरह नाम मनः भवेत् अपि मनः अपि यथा तत्र ज्ञान उत्पादने यदि किमपि पश्यामः तत्र चक्षुः अपि पदार्थस्य संयोगः, अथवा यदा यदि किमपि स्पृशामः त्वक् अपि तत्र पदार्थस्य संयोगः भवति, तथैव तत्र मनः अपि तत्र मनसः अपि आत्मनः संयोगः अपेक्षितः ज्ञानस्य उत्पादने. तर्हि तत्र मनसः संयोगः मनसः आत्मन आत्मा मनसः मनसोः संयोगः इति भवति असमवायि कारणम्. यदि मनसः संयोगः नास्ति तदा तत्र ज्ञानं न भवति. अतः तत्र असमवायि कारणम् अस्ति, असमवायि कारणम्. अतः मनसः संयोगः असमवायि कारणम् अस्ति ज्ञानं ज्ञानस्य. तर्हि ज्ञानस्य समवायिकारणम् अस्ति जीवात्मा, अपि ज्ञानस्य असमवायिकारणम् अस्ति आत्ममनसोः संयोगः. यदि संयोगः न भवति
प्रत्यक्षज्ञानम् एव खलु. अनुमानं यदि अनुमानस्य ज्ञानं भवति तर्हि
समीचीनं समीचीनं. हा, अत्र प्रत्यक्ष हा, धन्यवादः महोदय, समीचीनं. हा, समीचीनं महोदय, उत्तमं. हा, अत्र प्रत्यक्षम् इति एव इष्टं, समीचीनं महोदय, प्रत्यक्षं ज्ञानमेव इष्टम् अत्र. हा, समीचीनं महोदय, उत्तमं.
प्रश्नः महोदय, प्रत्यक्षं वा न वा, ज्ञानं तु मनसा एव गृह्यते खलु, तेन कारणेन किमर्थं केवलं प्रत्यक्षम् इति वक्तव्यम्? अनुमान उपमान अपि च शाब्दबोधः सर्वे अपि मनसा एव गृह्यन्ते खलु
इति अस्ति, किन्तु इदानीम् एतावत् तत्र वयं किम् उक्तवन्तः तत्र मनसि तत्र यत्किमपि तत्र मनः अपि तत्र आभ्यन्तर इन्द्रियं खलु.
प्रत्यक्षं भवति, अस्तु. आम्,
अतः इन्द्रियेण प्रत्यक्षम् इति अस्तु. तर्हि तत्र प्रत्यक्षमिति तत्र स्थापयामः, चिन्ता मास्तु. तर्हि तत्र मनसः संयोगः आत्मा मनस तत्र मनसोः तत्र संयोगः असमवायिकारणम् अस्ति इति. अस्तु इदानीं तत्र वयं चिन्तयामः तत्र इदानीम् एतत् तत्र किमपि वयं पश्यामः तत्र पुस्तकं पश्यामः
महोदय क्षम्यतां
वदतु
कश्चन प्रश्नः किञ्चित् स्पष्टीकरणम् अत्र नीलरूपस्य विषयम् उक्तमस्ति खलु घटकपालयोः मध्ये तत्र घटकपालयोः मध्ये समवायीकारणमस्ति तत्र कपालः
तत्र घटकपालयोः मध्ये इति न कपालः घटस्य समवायीकारणम् अस्ति नाम तत्र समवायीकारणम् एकमेव भवति कार्यकारणसम्बन्धः द्वयोः मध्ये अस्ति किन्तु एकं कारणं भवति अन्यत् कार्यं भवति खलु
अस्तु तर्हि इदानीं नीलरूपम् इति कपाले अस्ति इति किमर्थं न वक्तुमः किमर्थं घटे अस्ति इति
अत्र नीलरूपं घटः नीलरूपवान् इति स्वीकृतवन्तः तर्हि नीलरूपं घटे अस्ति इति अत्र स्वीकृत्य तत्र घटः कीदृशकारणं कीदृशं कारणम् इति प्रश्नः आसीत् तत्र समवायिकारणम् इति उत्तरमासीत् खलु नीलरूपस्य समवायीकरणं घटः अस्ति खलु
नीलरूपवान् घटः इति वदामः चेत् अस्तु
हा किन्तु यत् तत्र भवती वदति तत्र हा तादृशचिन्तनं तत्र अग्रे आगच्छति नाम नीलरूपस्य समवायीकारणं घटः अस्ति समीचीनं किन्तु नीलरूपस्य असमवायीकारणम् अस्ति वा इति अपि प्रश्नः भवति खलु
हा इति आं सत्यं तदेव
हा तद् अग्रे वयं द्रक्ष्यामः तत्र किं भवति तत्र यः नीलरूपः नीलरूपं कपाले वर्तते सः तत्र तेन तस्य आधारेण तत्र तदेव असमवायीकारणम् इति चिन्तयितुं शक्नुमः किन्तु तस्य निरूपणम् अग्रे भविष्यति हा किन्तु तत्र नीलरूपः यत् कपाले अस्ति तदपि कारणम् अस्ति एव किन्तु कीदृशकारणम् इति तस्य विवरणम् अग्रे कुर्मः यतोहि इदानीं केवलम् अत्र किमर्थम् एषा चर्चा अस्माभिः कृता इत्युक्ते तत्र धलसार्थक्यम् इति कार्ये आवश्यकम् इति कृत्वा एतत् सर्वम् अस्माकं कृता आसीत् अतः तत्र आधिक्येन न वक्तुम् इच्छामि किन्तु यदि तत्र कारणम् इति अग्रे भवति तदा समवायिकारणम् असमवायिकारणम् इति तत्र सम्यक् रीत्या कुर्मः किन्तु अत्र केवलं तत्र अतिव्याप्तिदोषः अस्ति इति तत्र सम्यक्तया अवगच्छामः इति इच्छा तया तत्र एतत् सर्वं कृतं किन्तु अग्रे समीचीनप्रश्नः तत्र कपाले विद्यमानः नीलरूपगुणः अपि कारणमस्ति घटे विद्यमाननीलरूपं प्रति कीदृशकारणम् इति एतत् सर्वम् अग्रे वयं कुर्मः
तर्हि अत्र असमवायीकारणम् इति समवायीकारणे अस्ति इति समीचीनम्
इति एतावत् अवगच्छामः तावदेव तत्र कार्यं समवायसम्बन्धेन कारणे अस्ति चेत् तत् कारणं भवति समवायिकारणं तस्मिन् समवायिकारणे अन्यत् कारणम् अस्ति यः यत् अपि समवायसम्बन्धेन अस्ति समवायकारणे तद्भवति असमवायिकारणं साधारणतया गुणः भवति अथवा क्रिया भवति असमवायिकारणम् अपि यद्यत् समवायिकारणं नास्ति असमवायिकारणं नास्ति तत्सर्वं निमित्तकारणं निमित्तकारणम् इति अतः तत्र केचन एव तत्र तत्र कानिचन कारणानि एव तत्र समवायी अथवा असमवायी भवेयुः किन्तु निमित्तकारणानि अनेकानि भवन्ति सर्व साधारणतया तर्हि तत्र घटं प्रति कपालः समवायिकारणं कपालसंयोगः असमवायिकारणं किन्तु दण्डः चक्रभ्रमणं चक्रं
कुलालः
जलं सर्वं तत्र निमित्तकारणं
अस्तु महोदय,
अपि तत्र साधारणकारणम् इति अपि अग्रे भवति, नाम तत्र कालः भवेत्, ईश्वर इच्छा भवेत्, ईश्वर ज्ञानं भवेत्, एतत् सर्वमपि भवति, तत्र साधारणकारणानि भवन्ति ते सर्वे, अतः तस्य तदपि अग्रे आयाति. अस्तु समीचीनम्. अन्य कोऽपि प्रश्नः
पृच्छामि? तन्तुसंयोगः इति गुणः अस्ति, तर्हि कस्य गुण, तन्तूनां गुणः वा पटस्य गुणः?
न न, नाम तत्र संयोगः तन्तूनां संयोगः खलु. तत्र हस्तयोः संयोगः इति, तत्र हस्तयोः संयोगः, तर्हि संयोगः कुत्र अस्ति? हस्ते अथवा हस्तौ अस्ति खलु,
हस्तौ अस्ति नाम,
तथैव अत्र तन्तुषु अस्ति संयोगः,
तन्तूनां गुणः तन्तुसंयोगः, न तु पटस्य गुणः,
न तु पटस्य गुणः, सत्यं. यतोहि तत्र असमवायिकारणम् इत्युक्ते एषः गुणः वा अथवा सा क्रिया वा समवायिकारणे भवेत्,
समवायिकारणे एव भवति,
हा कार्ये इति नास्ति, समवायिकारणे भवेत्. अतः कारणे, समवायिकारणे विद्यमानः गुणः वा क्रिया वा यत् कारणमस्ति कार्यं प्रति, अतः तत्र तन्तूनां संयोगः तन्तुषु वर्तते, अपि गुणः इति कृत्वा तन्तूनां संयोगः समवायसम्बन्धेन तन्तुषु वर्तते. अस्तु अस्तु, तर्हि इदानीं तत्र, इदानीं यदि पुस्तकम् इति पुस्तकं पश्यामः, तत्र चक्षुः, चक्षुषा पश्यामः, तर्हि तत्र चक्षुः अस्ति, मनः अस्ति, आत्मा अस्ति, अपि मनसः तत्र संयोगः अस्ति, तयोः मध्ये संयोगः अस्ति, मनः चक्षुः तयोः अपि संयोगः अस्ति, चक्षुः पुस्तकं तयोः अपि मध्ये संयोगः अस्ति, अतः तत्र बहु किमपि अस्ति. अत्र आत्मा इति एतत् सर्वं दृष्ट्वा तत्र आत्मनि ज्ञानं भवति, तत्र एतत् पुस्तकम् इति ज्ञानं भवति, इदं पुस्तकम् ज्ञानं, तत्र पुस्तकविषयकं ज्ञानं भवति आत्मनि, तस्य ज्ञानस्य कारणम् आत्मा अस्ति कारणं, मनः अस्ति कारणं, चक्षुः अस्ति कारणं, संयोगः अस्ति कारणम्, अतः पुस्तकस्य प्रत्यक्षज्ञानम् एतदस्ति, पुस्तकस्य प्रत्यक्षज्ञानं, प्रत्यक्षज्ञानस्य कारणम् आत्मा अपि भवति, मनः अपि भवति, चक्षुः अपि भवति, मनः आत्मनोः संयोगः अपि भवति, अपि साक्षात् पुस्तकमपि भवति खलु. यदि पुस्तकं नास्ति चेत् इदं पुस्तकविषयकं ज्ञानं न उत्पद्यते, अतः पुस्तकमपि अपि कारणं, चक्षुः अपि कारणं, मनः अपि कारणम्, आत्मा अपि कारणं, संयोगः अपि कारणम्, अतः इदं पुस्तकम् इति प्रत्यक्षज्ञानस्य अनेकानि कारणानि भवन्ति. अतः तत्सर्वं किमर्थम् उक्तवन्तः, तत्र सुखादि उपलब्धिसाधनत्वम् इति यदि मनसः लक्षणम् इति वदामः, तत्र सुखादि उपलब्धिसाधनत्वम् इति यदि वदामः, तत्र किं भवति? तत्र साधनत्वम् इत्युक्ते कारणत्वम् इति उक्तवन्तः. साधनत्वं नाम कारणत्वम्, कारणत्वं कुत्र भवति? कारणे भवति. उपलब्धि नाम प्रत्यक्षम्. तर्हि सुखादि उपलब्धिसाधनत्वं नाम सुखादि प्रत्यक्षकारणत्वं, मनसि एतत् कारणत्वम् अस्ति, किन्तु कारणत्वम् अन्यत्र अस्ति वा? सुखादि उपलब्धिकारणत्वं प्रत्यक्षकारणत्वम् अन्यत्र वर्तते वा? नरसिंह महोदय.
आम्, अन्यत्र अपि वर्तते महोदय. आत्मनि
आत्मनि वर्तते, अपि
अपि संयोगे वर्तते.
संयोगे अपि वर्तते, हा, अपि सुखे अपि वर्तते खलु.
सुखे अपि वर्तते, यथा पूर्वस्मिन् उदाहरणं पुस्तके आसीत् तत्र सुखे अपि वर्तते.
वर्तते अतः इति कृत्वा तत्र केवलं कारणत्वम् इति वदामश्चेत् तत्र आत्मनि वर्तते इति कृत्वा तत्र अतिव्याप्तिदोषः भवति. यदि केवलं तत्र एतद्धलम् एव वदामश्चेत्, सुखादि उपलब्धिसाधनत्वम् इति वदामश्चेत् तत्र अतिव्याप्तिदोषः भवति. तर्हि नाम मनः विहाय अन्यत्र अपि कारणत्वं भवति, अतः अतिव्याप्तिदोषः भवति. अतः एतेन दलेन न पर्याप्तम्. किन्तु यदि वयं सुखादि उपलब्धिसाधनत्वम् इति वदामः, अपि इन्द्रियत्वम् इति वदामः, तर्हि तत्र इन्द्रियत्वं कुत्र कुत्र अस्ति? मनसि अस्ति, अपि पञ्चेन्द्रियेषु बहिरिन्द्रियेषु अस्ति. किन्तु बहिरिन्द्रियेषु तत्र यदा किमपि पश्यामः तर्हि तत्र चक्षुषु तदा चक्षुषु कारणत्वम् अस्ति, किन्तु तस्मिन् समये तत्र त्वचि कारणत्वं नास्ति, यतोहि तत्र एतत् ज्ञानं केवलं चक्षुषा भवति, तदा कारणत्वं नास्ति. यदि किमपि स्पृशामः तदा कारणत्वम् अस्ति, इन्द्रियत्वम् अपि अस्ति, किन्तु सर्वदा इन्द्रिय तत्र त्वचा एव तत्र भवति इति नास्ति. अतः तत्र सुखादि उपलब्धिसाधनत्वम् इति यदि वदामः, अपि इन्द्रियत्वम् इति वदामः, तत्र किं भवति? केवलं दलद्वयं यदि स्थापयामः तदा किं भवति? दलद्वयं केवलं मनसि एव अस्ति, अन्येषु इन्द्रियेषु नास्ति, अन्यत्र अपि नास्ति इति कृत्वा तत्र अतिव्याप्तिदोषः नास्ति, अव्याप्तिदोषः नास्ति. अपि तत्र तृतीयविधदोषः किम् आसीत् तत्र, कोऽपि स्मरति वा? तत्र असम्भवदोषः, धन्यवादः, असम्भवदोषः अपि नास्ति. अतः तत्र लक्षणम् इति स्वीकर्तुं शक्नुमः इति अस्ति. अतः तत्र साधनत्वं नाम कारणत्वं किमर्थं तत्र अतिव्याप्तिदोषः अस्ति इत्युक्ते, तत्र साधनत्वं मनः इत्युक्ते तत्र मनः किं भवति? निमित्तकारणं भवति. मनः न तु ज्ञानस्य समवायिकारणं, न तु असमवायिकारणं. मनः ज्ञानस्य निमित्तकारणम् अस्ति. अतः समवायिकारणे अपि कारणत्वम् अस्ति, असमवायिकारणे अपि कारणत्वम् अस्ति, किन्तु मनः निमित्तकारणमस्ति, इन्द्रियमपि अस्ति. अतः तत्र अतिव्याप्तिदोषः न भवति यदि द्वयमपि दलद्वयमपि वदामः इति. एतत् सर्वं स्पष्टतया वक्तुम् एतत् सर्वं वयं कृतवन्तः, नाम समवायिकारणम्, असमवायिकारणं, निमित्तकारणं. तर्हि तत्र ज्ञानस्य समवायिकरणम् आत्मा अस्ति, असमवायिकरणं मनसः संयोगः, आत्ममनसोः संयोगः, अपि मनः साक्षात् मनः निमित्तकारणम् अस्ति. इति अस्ति. अतः तत्र इदानीं तत्र धलसार्थक्यम् अस्माभिः कृतमस्ति. तर्हि तत्र वयम् एतावत् सम्यक्तया ज्ञातुं शक्नुमः तत्र सुखादि उपलब्धिसाधनत्वम् अपि इन्द्रियत्वं मनसः लक्षणम् इति सम्यक् अस्ति इति. हा, इदानीं तत्र अग्रे सरामः. तर्हि तत्र इदानीं तत्र लक्षणवाक्यम् एतावत् साधितम् अस्ति, किन्तु तस्य निरूपणं नाम सम्यक् रीत्या यथा वयं पूर्वं कृतवन्तः तथैव अत्रापि अस्माभिः करणीयमस्ति. तर्हि तत्र पुनस्मरणं कुर्मः तत्र कालस्य विषये यत् कृतवन्तः. वदतु भगिनि.
क्षम्यतां महोदय, अन्तिमभागः पुनरेकवारं वदति वा महोदय, कथं निमित्तकारणं जातम् इति? मनः
मनः, हा, तर्हि तत्र तत्र कारणस्य त्रैविध्यम् उक्तवन्तः, नाम समवायिकारणं, यत् तत्र ज्ञानम् इति कार्यमस्ति अस्माकं, ज्ञानं ज्ञानस्य समवायिकारणम् अस्ति आत्मा, यतोहि ज्ञानं समवायसम्बन्धेन आत्मनि वर्तते खलु. तर्हि समवायिकारणम् आत्मा, ज्ञानस्य समवायिकारणम् अपि आत्ममनसः, तयोः संयोगः. तत्र आत्मा, तत्र विभुद्रव्यमस्ति, तत्र सर्वमूर्तद्रव्यसंयोगः आत्मनि अस्ति खलु. विभुद्रव्यं नाम सर्वमूर्तद्रव्यसंयोगत्वं भवेत् तदा एव तत्र विभुद्रव्यम् इति वदामः खलु. आत्मविभुद्रव्यम् अस्ति, तर्हि तत्र संयोगः अस्ति, मनः अपि, मनः इति मूर्तद्रव्यमस्ति, यतोहि तस्मिन् क्रिया भवति, मनः एकस्मिन् क्रिया भवति खलु. अतः तत्र मनः तत्र मूर्तद्रव्यमस्ति, आत्मा मनः तयोः मध्ये संयोगः भवति. यदा संयोगः भवति तदा एव, नाम तत्र प्रत्येक एकमेकं शरीरमस्ति, जीवात्मनः एकं शरीरमस्ति, शरीरे एकं मनः अस्ति. अपि यदा मनः अपि आत्मनः तयोः मध्ये संयोगः भवति तदा एव ज्ञानम् उत्पद्यते. अस्माकम् आनुभाविकम् अस्ति खलु, नाम तत्र वयं तत्र वर्गे स्मः, किन्तु तत्र अन्यत् किमपि पश्यामः, तदा किं भवति, यत् वर्गे उक्तमस्ति
तद् एकाग्रता न प्राप्यते, प्रेसेन्स् आफ् माइंड इति वदामः खलु.
मनः अपि आत्मनः तयोः मध्ये संयोगः अपेक्षितः, नो चेत् ज्ञानं न उत्पद्यते. अतः मनः आत्मनः तयोः मध्ये संयोगः भवेत् तर्हि तत् कारणमस्ति ज्ञानं प्रति. एषः संयोगः मनसः आत्मनः, तत्र केवलं मनसः इति उक्तवान्, तत्र आत्मा मनसः, तत्र आत्मा मनसोः इति वक्तव्यमस्ति. संयोगः, सः संयोगः आत्मनि अपि अस्ति, मनसि अपि अस्ति. यथा तत्र घटः भूतलं तयोः संयोगः, संयोगः इति गुणः तत्र भूतले अपि अस्ति, घटे अपि अस्ति, तथैव आत्ममनसोः संयोगः आत्मनि अपि अस्ति, मनसि अपि अस्ति. आत्मनि अस्ति इति कृत्वा एषः संयोगः समवायसम्बन्धेन आत्मनि अस्ति, अपि कारणमस्ति ज्ञानं प्रति. तर्हि एषः संयोगः आत्ममनसोः संयोगः ज्ञानस्य असमवायीकारणमस्ति. यतोहि समवायिकारणे समवायसम्बन्धेन अस्ति, ज्ञानस्य कारणमस्ति, प्रथमतया ज्ञानस्य कारणमस्ति, अपि समवायसम्बन्धेन समवायीकारणे अस्ति. अतः एषः संयोगः
असमवायिकारणस्य.
यत् समवायिकारणं नास्ति, असमवायिकारणं नास्ति, तत् निमित्तकारणम्
अस्तु.
यत् कारणं, यत् कारणमस्ति किन्तु समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति, तत् निमित्तकारणं भवति.
असमवायिकारणं, समवायिकारणम् इति किम् इति पृच्छामः चेत् आत्ममनसोः संयोगः एव असमवायिकारणम् इति.
यतोहि तत्र मनः असमवायिकारणं न भवति, यतोहि मनः समवायसम्बन्धेन आत्मनि नास्ति. तत्र समवायिकारणे समवायसम्बन्धेन यत् कारणं भवेत् तदा एव तत् तत् कारणम् असमवायिकारणं भवितुम् अर्हति. किन्तु मनः कदापि तत्र समवायसम्बन्धेन आत्मनि न भवितुम् अर्हति. अतः केवलं तत्र मनसः, आत्ममनसोः संयोगः असमवायिकारणमस्ति ज्ञानस्य, मनः अपि कारणमस्ति ज्ञानस्य, किन्तु मनः निमित्तकारणं भवति.
अस्तु, मनः निमित्तकारणं,
निमित्तकारणं भवति. अत्र यदा पुस्तकं पश्यामः, इदं पुस्तकमिति प्रत्यक्षज्ञानं भवति, तत्र किं किं कारणं भवति अस्मिन् सन्दर्भे?
तत्र चक्षुः चक्षोः सान्निध्यं भवति, पुनः मनसः अपि, मनसः संयोगः
कारणमस्ति अपि, मनसः चक्षुषोः तत्र तयोः अपि मध्ये अपि संयोगः भवेत् खलु, नो चेत् तत्र तर्हि तत्रापि संयोगः
संयोगः
तत्रापि संयोगः अपि चक्षुः अपि पुस्तकं तयोः मध्ये अपि संयोगः इति अग्रे द्रक्ष्यामः. तयोः अपि मध्ये अपि तत्र संयोगः भवति इति, अतः तत्र पुस्तकमिति प्रथमतया कारणमस्ति खलु. पुस्तकं नास्ति चेत् इदं पुस्तकमिति ज्ञानं न उद्भवति,
न भवति.
अपि चक्षुः अपि पुस्तकं तयोः मध्ये सन्निकर्षः इति भवति, तस्य संयोगस्य नाम अग्रे गत्वा द्रक्ष्यामः. अत्रापि संयोगः अस्ति, मनः अपि चक्षुः तयोः मध्ये अपि संयोगः अस्ति, मनः अपि आत्मा तयोः मध्ये अपि संयोगः अस्ति. अतः एतदपि कारणम्, एतदपि कारणम्, एतदपि कारणम्, एतदपि कारणम्, अत्र संयोगः, अत्र संयोगः, अत्र संयोगः, तदपि कारणम्. अतः अनेकानि कारणानि सन्ति. किन्तु केवलम् एतत् एषः आत्मा इति समवायिकारणमस्ति, एषः संयोगः असमायिकारणमस्ति, अन्यत् यत्किमपि भवेत् कारणं तत् सर्वं निमित्तकारणम् इति भवति.
अत्र यतोहि अत्र सुखादि उपलब्धेः उपलब्धिसाधनम् इति उक्तं खलु, तेन पुनः ज्ञायते यत् केवलं सुखादीनामेव उपलब्धिकारणं भवति मनः, न तु रसरूपस्पर्श इत्यादीनाम् इति अर्थः स्यात् वा तत्र?
न न किन्तु तत्र अस्तु अस्तु, नाम तत्र रसस्य प्रत्यक्षज्ञानमपि तत्रापि मनः
मनः सान्निध्यं भवति, किन्तु अत्र एतादृशं किमर्थम् उक्तं सुखादि उपलब्धिसाधनं?
तत्र लक्षणम् इति यदि वदामः, तत्र तस्य क्षेत्रं यावत् लघु भवेत् तावत् वयं वक्तुम् इच्छामः. बृहत् कियत् बृहत् इति विषयः नास्ति, कियत् लघु इति वक्तुम् इच्छामः खलु. लक्षणं किं करोति, केवलं लक्ष्ये एव भवेत् इति खलु. अतः तत्र रूपस्य अपि उपलब्धिसाधनम् अस्ति, मनः सर्वमस्ति, किन्तु यदि एतत् वदामः तेन सर्वं लघु भवति. नाम तत्र यदि तत्र पुस्तकादि उपलब्धिसाधनत्वम् इति वदामः, तत्र किं भवति, तत्र चक्षुः अपि इन्द्रियत्वम् अपि वदामश्चेत् तत्र प्रायशः चक्षुः अपि भवेत् खलु तर्हि तत्र. किन्तु सुखम् इति तत्र तस्य ज्ञानं तत्र बहिरिन्द्रियेण न भवति खलु.
तस्य तं विहाय ज्ञानात् उपलब्धिसाधनम् इति वदामः चेत् सर्वं सर्वस्यापि ग्रहणं भवेत् खलु.
साधनम् इत्युक्ते तत्र किन्तु तत्र किं भवति, केवलं कारणत्वम् इति उक्तवन्तः, तत्र तर्हि तत्र चक्षुः अपि भवति खलु तर्हि
भवति, तत् भवेत् खलु.
संयोगः अपि मनसः संयोगः अपि भवति खलु तर्हि. किन्तु वयं केवलं मनः एव इच्छामः खलु. नाम लक्षणम् इत्युक्ते केवलं मनसि एव भवेत् खलु.
प्रष्टुमिच्छामि महोदय.
आं वदतु भगिनि, वदतु भगिनि.
मनसः विना ज्ञानं न भवति, तत् सत्यं किल?
तत्तु सत्यमेव.
तर्हि
नाम तत्र एतावत् तत्र प्रत्यक्षज्ञानम् इति चिन्तनं कुर्मः.
अस्ति, तर्हि यद् अद्य वयम् आत्मनः लक्षणस्य विषये सम्भाषणं कुर्वन् स्मः किल.
आत्मनः लक्षणं न, केवलं मनसः लक्षणम्.
अस्तु, मनसः लक्षणम्.
हा, नाम तत्र दलद्वयम् आसीत् खलु, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति.
धन्यवादः.
हा, अतः तत्र आत्मा इति तस्य लक्षणं न, केवलं तत्र मनसः लक्षणम्. इन्द्रियत्वम्, इन्द्रियम् इति एकं दलम् आसीत्, तत्र केवलम् इन्द्रियम् अथवा इन्द्रियत्वम् इति वदामश्चेत् तत्र अतिव्याप्तिदोषः वर्तते इति जानीमः. अपि केवलं सुखादि उपलब्धिसाधनं नाम सुखादि, सुखस्य, दुःखस्य
इत्यादि
इत्यादयः तेषां प्रत्यक्षसाधनं कारणं मनः इति यदि वदामः, तत्र किं भवति, तादृशज्ञानं, प्रत्यक्षज्ञानं, ज्ञानस्य कारणं किम् इति वदामश्चेत् तत्र प्रत्यक्षं नाम इति अस्ति खलु, उपलब्धि इत्युक्ते प्रत्यक्षम्, प्रत्यक्षज्ञानं, उपलब्धिसाधनं नाम प्रत्यक्षज्ञानं, प्रत्यक्षज्ञानं उपलब्धिसाधनं, क्षम्यताम्, हा, उपलब्धि इत्युक्ते प्रत्यक्षज्ञानं, उपलब्धिसाधनम् इत्युक्ते प्रत्यक्षज्ञानस्य कारणम्. तर्हि प्रत्यक्षज्ञानस्य कारणं किं भवति, ज्ञानं. ज्ञानस्य कारणं वयं दृष्टवन्तः, आत्मा इति अपि कारणमस्ति, आत्ममनसोः संयोगः अपि कारणमस्ति, मनः अपि कारणमस्ति, अनेकानि कारणानि भवेयुः. किन्तु यदि तत्र वयं तत्र इन्द्रियत्वम् इति स्थापयामः, किं भवति तदा, आत्मनि अतिव्याप्तिदोषः भवति वा तर्हि तदा? किन्तु यदि केवलं सुखादि उपलब्धिसाधनम् इति वदामः तर्हि आत्मनि अतिव्याप्तिदोष, आत्मनि सुखादि उपलब्धिसाधनत्वम् अस्ति खलु?
अस्तु, आम्, परन्तु केवलं मनः नास्ति कारणं. चक्षुः यदि किमपि पश्यामः सुन्दरं,
किन्तु तर्हि तत्र यदि सुखादि उपलब्धिसाधनम् इति केवलं तद् वदामः, उपलब्धिसाधनं नाम प्रत्यक्षज्ञानस्य कारणमिति वदामः, तत् कारणत्वं मनसि अस्ति खलु? मनसि अस्ति इति कृत्वा अव्याप्तिदोषः नास्ति खलु? मनसि अस्ति एतत् कारणत्वं, सुखादि उपलब्धिसाधनत्वं मनसि अस्ति, तर्हि अव्याप्तिदोषः नास्ति. इदानीं सुखादि उपलब्धिसाधनत्वम् अथवा कारणत्वम् अन्यत्र अस्ति वा? उपलब्धि प्रत्यक्षं ज्ञानस्य कारणम् अथवा कारणत्वम् अन्यत्र अस्ति वा?
सुखदुःखादि केवलं मनसा एव अनुभूयते खलु, न चक्षुषा,
न किन्तु अत्र अनुभूयते इति नास्ति, तत्र सुखादि उपलब्धिसाधनत्वं नाम कारणत्वं, तस्य सुखस्य कारणमिति अपि नास्ति, सुखस्य प्रत्यक्षज्ञानं खलु उपलब्धि
प्रत्यक्षज्ञानस्य
उपलब्धिसाधनम् इति आसीत् खलु. तर्हि साधनं नाम कारणम्. तर्हि यथा पुस्तकत्वं कुत्र वर्तते?
पुस्तके
एव वर्तते, तथैव कारणे
कारणत्वम्
अस्ति खलु.
आम् आं महोदय,
कारणत्वम् अस्ति. तर्हि अत्र सुखादि उपलब्धिसाधनत्वं नाम कारणम् अथवा कारणत्वं कुत्र कुत्र वर्तते? यत्र कारणमस्ति, सुखादि उपलब्धिकारणं यत्र अस्ति तत्र कारणत्वम् अस्ति. तर्हि सुखादि उपलब्धिकारणं केवलं मनः इति वक्तुं शक्नुमः वा?
आत्मा अपि अस्ति
आत्मा अपि अस्ति आत्मा अपि कारणम् अस्ति खलु
सुख
ज्ञानं प्रत्यक्षज्ञानस्य कारणम् आत्मा अपि अस्ति तर्हि प्रत्यक्षज्ञानस्य कारणत्वम् आत्मनि अस्ति खलु
आम्
तर्हि तत्र किं भवति तत्र मनः इति अस्ति अत्रापि कारणत्वम् अस्ति आत्मा तत्रापि कारणत्वम् अस्ति खलु अपि तयोः मध्ये संयोगः
भवेत्
तत्रापि कारणत्वम् अस्ति खलु यदि एकमपि अस्ति चेत् तत्र मनं विहाय अन्यत्र यत् लक्षणमिति चिन्तनम् आसीत् यदि तद् विजातीयेषु एकस्मिन् अपि विजातीये इति तत्र किमस्ति विजातौ इति प्रायः
समीचीनं विजातीये
हा क्षम्यतां विजातीये वर्तते चेत् अतिव्याप्तिदोषः भवति खलु केवलं स्वजातीयेषु भवेत् तस्य कस्य तत्र केवलं तत्र सजातीयेषु भवेत् विजातीयेषु मा भवेत् तर्हि तत्र यदि सुखादि उपलब्धिसाधनत्वं नाम कारणत्वं तत्र मनसि अस्ति आत्मनि अपि अस्ति चेत् तत्र अतिव्याप्तिदोषः आगच्छति खलु अतः
यदि पुष्पं सुखं जनयति तर्हि पुष्पमपि एकं कारणम् अत्र वक्तुं शक्नुमः सुखस्य खलु
पुष्पमपि सुखस्य कारणं भवति किन्तु तत् कीदृशं कारणं भवति तत्
कारणं
निमित्तकारणं यतोहि सुखम् इति गुणः अस्ति आत्मनि अस्ति आत्मा समवायिकारणम् अस्ति पुष्पं तु तत्र समवायिसम्बन्धेन समवायसम्बन्धेन आत्मनि नास्ति खलु
आम् आम् आम्
अतः निमित्तकारणं भवति तत्र अतः इदानीं तत्र निमित्तकारणं समवायिकारणम् असमवायिकारणम् इति तद् मूलविषयः नास्ति किन्तु किञ्चित् अवगमनम् इदानीम् अस्ति चेत् सम्यक् रीत्या जानीमः तत्र मन विहाय अन्यानि कारणानि सन्ति अतः साधनत्वं कारणत्वं प्रत्यक्षकारणत्वम् अन्यत्र अपि वर्तते इति अवगमनं भवति अतः एव एतत् सर्वम् उक्तं समीचीनं वा भगिनी विमला भगिनी
आं महोदय अवगतं धन्यवादाः
हा अस्तु जयलक्ष्मी भगिनी समीचीनं वा
आं महोदय धन्यवादः
अस्तु अस्तु तर्हि अतः तत्र सुखादि उपलब्धिसाधनत्वम् अपि इन्द्रियत्वं मनसः लक्षणम् इति वक्तुं शक्नुमः इदानीं तत्र कारणम् इति उक्तवन्तः इति धलमस्ति तत्र मनसः लक्षणवाक्ये अतः तत्र यदि तत्र चित्रं निर्मातुम् इच्छामः तत्र लक्षणस्य सम्यक् अवगमनार्थं चित्रं रचितुम् इच्छामः तर्हि प्रथमतया अस्माभिः तत्र कालस्य लक्षणवाक्यम् अपि तस्य चित्रं स्मर्तव्यम् अस्ति तर्हि तत्र कालस्य लक्षणं किम् आसीत् कोऽपि स्मारयति वा अशोक महोदय कालस्य वदतु नरसिंहमहोदय वदतु महोदय
इत्यादिव्यवहारः काल
हा अतीतादिव्यवहारः हेतुः कालः तत्र हेतुः नाम किम् कारणं हा तत्र कारणं तर्हि तत्र काले कारणत्वम् अस्ति अतः एव तत्र काले कारणता अस्ति शब्दप्रयोगे कार्यता अस्ति शब्दप्रयोगे पुनः कारणता अस्ति ज्ञाने कार्यता अस्ति तत्र निरूपकं ज्ञानम् एतत् सर्वं वयं रचितवन्तः तथैव अत्रापि अस्माभिः करणीयमस्ति तत्र केवलं किञ्चित् वदामः अद्य किन्तु गृहपाठरूपेण
चित्रस्य रचनं भवेत् अपि एकः तत्र भेदः वर्तते कालस्य तत्र लक्षणवाक्ये एकमेव दलम् आसीत् अतीतादिव्यवहारः हेतुः कालः इति आसीत् कारणत्वम् इति एकमेव दलम् आसीत् किन्तु अत्र किमस्ति तत्र इन्द्रियत्वम् इति अपि दलम् अस्ति अत्र चित्रं किञ्चित् भिन्नं भवति किन्तु तत्र सामान्यमपि अस्ति तर्हि तत्र अतीतादिव्यवहारः हेतुः तत्र विषयः तत्र ज्ञानं तत्र अतीतादिव्यवहारः नाम शब्दप्रयोग तत्र प्रयोगेन ज्ञानं भवेत् तादृशशब्दप्रयोगः एव ज्ञानजनकः शब्दप्रयोगः एव तत्र व्यवहारः इति उक्तवन्तः अपि तस्य ज्ञानस्य विषयः अस्ति घट तत्र घटे अतीतत्वम् अस्ति अतीतत्वं घटे अस्ति अतीतत्वम् इति तत्र घटे अस्ति इति विषयः आसीत् तथैव अत्रापि सुखादि उपलब्धिसुखादिज्ञानम् उपलब्धिप्रत्यक्षज्ञानम् इति अस्ति तत्र सुखम् इति एव विषयः ज्ञानस्य इति कृत्वा एतादृशचित्रं वयं रचयितुं शक्नुमः तर्हि तत्र तत्र गृहपाठरूपेण एतत् सर्वं कर्तुं शक्नुमः तर्हि तत्र गृहपाठरूपेण एतत् स्वीकृत्य कुर्वन्तु सर्वे तर्हि तत्र सुखादि उपलब्धिसाधनं नाम हेतुः अपि इन्द्रियम् अथवा इन्द्रियत्वं मनसः लक्षणम् इति तस्य लक्षणवाक्यं स्वीकृत्य एतादृशं चित्रं सर्वे रचयन्तु अतः तत्र अग्रे सरामः तत्र तत्र किञ्चित् अस्ति किन्तु किञ्चित् आदि तत्र कर्तुं शक्नुमः तत्र अवच्छेदकः धर्मः एतत् सर्वमपि स्थापयितुं शक्नुमः तत्र
प्रश्नः अस्ति
वदतु महोदय
उपरितन इदं पुस्तकम् अस्ति तत् विषये मनसः लक्षणमस्ति सुख दुःख आदि प्रत्यक्षम् उपलब्धि साधनं मनः सुख दुःख आदि इत्यनेन केषां ग्रहणं भवति
नाम महोदय तत्र सुखस्य दुःखस्य अपि तत्र ये विद्यमानाः धर्माः तत्र गुणाः सन्ति खलु विशिष्ट आत्मनः गुणाः
आत्मना गुणाः अस्ति तेषामेव प्रत्यक्षं मनसा भवति अतः अन्ये गुणाः सन्ति चतुर्विंशतिषु
आत्मनि ते न सन्ति खलु अतः तत्र तेषाम् इदानीं तत्र तेषां कारणं तत्र तेषां प्रत्यक्षज्ञाने मनः कारणं भवति तत्तु समीचीनं किन्तु लक्षणवाक्ये तस्य आवश्यकता नास्ति इति तावदेव नाम यदि सुखादि उपलब्धिसाधनं सुखस्य इति अथवा दुःखस्य इति तत्र प्रत्यक्षज्ञानं केवलं मनसा एव भवति इति यदि वदामः एकमेव इन्द्रियमस्ति येन सुखस्य ज्ञानं भवति इति यदि वदामः तत्
तदा नवगुणानां ज्ञानं मनसा एव भवति
हा तत्र नवगुणानां ज्ञानं न भवति महोदय यतोहि तत्र धर्मः अधर्मः इति तेषां तत्र केवलम् अनुमानेन इति एव वयं तत्र वक्तुं शक्नुमः तत्र साक्षात् प्रत्यक्षज्ञानं नास्ति धर्मः इति व्यापाररूपेण एव कल्पितः इति पूर्वं पठितवन्तः खलु हा व्यापारः नाम तत्र धर्मः अस्ति इति कृत्वा पूर्वस्मिन् जन्मनि तत्र धर्मकार्यं किमपि अभवत् इति कृत्वा अस्मिन् जन्मनि तत्र सुखम् इति भवति इति सुखम् इति कार्यमस्ति धर्मः इति कारणमस्ति खलु किन्तु
इदं पुस्तकम् इति ज्ञानमस्ति तत् ज्ञानं चक्षुषा अपि भवति मनः अपि तत्र संयोगः भवति तदा सुखादि उपलब्धि हेतु सुखादि इत्युक्ते अन्यत् अन्यत् शब्द गुणानाम् उपलब्धि साधनं मनः इति वक्तुं न शक्नुमः
न न महोदय तत्र लक्षणवाक्यम् अस्ति महोदय लक्षणवाक्यम् इत्युक्ते तत्र अन्यत् नास्ति इति अर्थः नास्ति नाम सुखस्य एव मनः उपलब्धिसाधनम् इति न उक्तं किन्तु यदि सुखस्य कारणम् अपि इन्द्रियम् इति वदामः तत्र किं भवति केवलं मनः एव भवति खलु तदा इति तेनैव पर्याप्तं किमर्थं तत्र यदि भवान् भवतः मित्रमस्ति तस् मित्रस्य नाम किमपि स्वीकुर्मः तत्र रमेशः इति चिन्तयतु रमेशः भवतः मित्रमस्ति अत्र एकः एव मित्रस्य नाम रमेशः अस्ति चेत् तत्र मम मित्रं रमेशः इति वदनेन पर्याप्तं खलु खलु तत्र रमेशः भवतः मित्रमिति यदि केवलं तद् वदामश्चेत् तत्र सः अन्यस्य मित्रमिति अर्थः अस्ति वा अथवा अन्यस्य मित्रं नास्ति इति अर्थः अस्ति वा नास्ति खलु भवतः मित्रमिति वदनेन अन्यस्य मित्रं नास्ति इति इच्छा नास्ति तत्र अत्रापि एतस्य कारणमिति वदनेन अन्यस्य कारणं नास्ति इति इच्छा नास्ति अत्र सुखस्य प्रत्यक्षज्ञानं मनसा भवति एतेन इन्द्रियेण एव भवति अन्येन इन्द्रियेण सुखस्य ज्ञानं न भवति अतः मनः एतत् मनसः लक्षणमिति स्वीकर्तुं शक्नुमः यतोहि अन्यत् किमपि इन्द्रियं नास्ति येन सुखस्य प्रत्यक्षज्ञानं भवति इति उक्त्वा मनसा अन्यस्य ज्ञानं न भवति इति न उक्तम् अत्र खलु
आमिति न उक्तम्
अतः पुस्तकस्य दर्शनसमये मनः अपि कारणमस्ति किमपि स्पृशामः तदापि मनः कारणमस्ति किन्तु अत्र यद् उक्तमस्ति केवलं लक्षणार्थं तत्र यत् कारणमस्ति मनः इति कीदृशपदार्थः मनस्य मनसः लक्षणं किम् इत्युक्ते यः गुणः अथवा यत् तत्र भावः धर्मः केवलं मनसि वर्तते इति उक्त्वा तत्र अन्ये धर्माः मनसि नास्ति इति न सन्ति इति न किन्तु एषः धर्मः केवलं मनसि एव वर्तते अन्यत्र नास्ति नाम उपलब्धिसाधनत्वं प्रत्यक्ष कारणत्वम् अपि इन्द्रियत्वम् इति यदि धर्मद्वयं स्वीकुर्मः तत् केवलं मनसि एव अस्ति अन्यत्र नास्ति एषः धर्मः समीचीनम्
सुखादि प्रत्यक्षं जायते मनसा एव न केनापि
अन्येन इन्द्रियेण तत्र केवलं यदि वदामः तत्र सुखादि उपलब्धिसाधनत्वं सुखादि प्रत्यक्षज्ञानं केवलं मनसा इति भवति इति न यतोहि आत्मना अपि भवति यतोहि आत्मा नास्ति चेत् तत्र ज्ञानं न उत्पद्यते मनः अपि आत्मनः संयोगः नास्ति चेत् अपि न उत्पद्यते एतद् ज्ञानम् अतः केवलम् उपलब्धिसाधनत्वं कारणत्वम् इति वदामश्चेत् तत्र अतिव्याप्तिदोषः भवति सुखादि उपलब्धिकारणत्वम् इति वदामः तदा संयोगे अपि कारणत्वम् अस्ति आत्मनेपि कारणत्वम् अस्ति किन्तु इन्द्रियम् इति वदामः तत्र आत्मेन्द्रियं नास्ति संयोगः इन्द्रियं नास्ति अतः केवलं मनसि एव अस्ति कारणत्वम् समीचीनं वा महोदय
समीचीनम् अवगच्छामि
हा
धन्यवादः महोदय
अस्तु महोदय
सुखस्य उपलब्धेः कारणं चक्षुः अपि भवति
न भवति भगिनि सुखस्य सुखादि उपलब्धि तत्र चक्षुः सत्यं भगिनि
चक्षुः भवति चक्षुः इन्द्रियमपि भवति अतः तत्र चक्षुः सुखादिवलब्धिसाधनत्वेपि इन्द्रियत्वं
किन्तु सर्वदा भवति नाम तत्र लक्षणं कीदृशमस्ति लक्षणं लक्ष्ये सर्वदा भवेत् खलु यदा यदा सुखस्य ज्ञानं भवति तदा तदा तत्र लक्ष्ये एतद् लक्षणं भवेत् तर्हि तत्र यदा यदा सुखस्य प्रत्यक्षं भवति तदा तत्र चक्षुषि तत्र कारणत्वं भवति वा
न सा चिन्तनम् अपि कारणं भवति वयं
नाम भवत्याः प्रश्नः उत्तमः नाम यदि अहं किमपि चित्रं पश्यामि सुन्दरमस्ति चित्रं सुन्दरं बहु सुन्दरम् अस्ति इति कृत्वा मम मनसि सुखं जायते तदा चक्षुषि तत्र किं भवति
कारणम्
अस्ति कारणत्वम् अस्ति तदा तस्मिन् समये कारणत्वम् अस्ति किन्तु यदि अहं किमपि सङ्गीतं शृणोमि तदापि सुखं जायते तदा किं तत्र चक्षुषि तत्र कारणत्वम् अस्ति वा तत्र लक्षणं तत्र किम् अस्ति तत्र लक्षणं लक्ष्ये सर्वदा भवेत् तत्र गन्धः पृथिव्याः लक्षणं तत्र गन्धं विना तत्र पृथिवी न भवति अतः एव तत्र गन्धः पृथिव्याः लक्षणम् इति स्वीकृतं खलु अतः तत्र सुखादि उपलब्धिसाधनम् इति तत्र किं भवति एकं शरीरमस्ति तस्मिन् शरीरे आत्मा अस्ति तत्र मनः अपि अस्ति अपि तस्मिन् विद्यमानः तत्र तदा तस्मिन् शरीरे तस्मिन् आत्मनि जीवात्मनि यदा सुखं भवति सुखस्य प्रत्यक्षज्ञानं भवति तदा किं भवति कारणत्वं सर्वदा कुत्र भवति सर्वदा आत्मनि भवति मनसि भवति आत्ममनसोः संयोगे सर्वदा भवति अन्येषु अपि कदाचित् भवति किन्तु सर्वदा भवति इति न वक्तुं शक्नुमः समीचीनं अतः तत्र
महोदय
सर्वदा
सुखम् अन्यः सुखस्य ज्ञानम् अन्यः खलु अतः सङ्गीते यदि सुखं भवति तद्
किन्तु
अन्यविषयः
सत्यं सत्यं किन्तु सुखम् अस्ति इति कृत्वा सुखस्य ज्ञानमपि भवति इति कृत्वा
सुखस्य कारणम् अन्यः सुखस्य अहं सुखी इति ज्ञानस्य कारणम् अन्यः खलु
किन्तु यत् सुखस्य कारणमस्ति तदपि सुखस्य प्रत्यक्षज्ञानं प्रति कारणमस्ति खलु महोदय
साक्षात् नास्ति
साक्षात् न परम्परया अस्ति
परम्परया
कारणं निमित्तकारणम् इति रूपेण स्वीकर्तुं शक्नुमः किन्तु इदानीं तत्र अस्यां चर्चायां तदपि कारणम् इति स्वीकृतवन्तः नाम सुखस्य कारणमपि सुखस्य प्रत्यक्षज्ञानं प्रति कारणम् इति स्वीकृतवन्तः सत्यं
मम अन्यः प्रश्नः अस्ति कारणविषये भवान् सदा उक्तवान् यदि कश्चित् नास्ति तर्हि अन्यः नास्ति अतः प्रथमः द्वितीयस्य कारणम् इति किन्तु तद् सम्यक्
तत् केवलं सारल्यार्थं नाम प्रत्येकस्मिन् सन्दर्भे तत्र निकषत्रयस्य परिशीलनं यदि कुर्मः तत्र अस्माकं वर्गस्य गतिः तत्र बहु मन्दः भवति
अस्तु अस्तु महोदय किन्तु एक उदाहरणं ददामि यदि नीलं पुष्पम् अस्ति अहं चिन्तयामि पुष्पं नीलत्वस्य कारणं नास्ति, यतोहि यदि पुष्पस्य उत्पन्नः अस्ति तर्हि एव नीलत्वम् अपि अस्ति पुष्पे. अतः नीलत्वस्य पूर्वक्षणे पुष्पं नास्ति, अतः पुष्पं नीलत्वस्य कारणं नास्ति इति.
उत्तम उदाहरणं महोदय, किन्तु तत्र न्यायशास्त्रे समीचीन उदाहरणं, किन्तु न्यायशास्त्रे ते किं चिन्तयन्ति, तत्र यदि तत्र घटस्य उत्पादनम् इति चिन्तयामः. उत्तम उदाहरणं महोदय, तत्र घटः इति घटस्य उत्पादनं भवति इति चिन्तयतु. अपि तत्र कपाले, तत्र कपाले कपाले तत्र रक्तवर्णः अस्ति इति चिन्तयतु. रक्तवर्णः अस्ति इति चिन्तयतु. इदानीं घटस्य निर्माणम् अभवत्, तत्र यदा यस्मिन् क्षणे एतस्य उत्पत्तिः भवति, एकक्षणं, केवलम् एकक्षणम् अस्मिन् द्रव्ये न कोऽपि गुणः तिष्ठति महोदय इति न्यायशास्त्रस्य तत्र मतं. प्रथमे क्षणे उत्पत्तेः प्रथमे क्षणे न कोऽपि गुणः, अग्रिमे क्षणे एव तत्र रूपं वा सर्वम् अतः नीलरूपमपि तत्र किं भवति, घटे घटस्य निर्माण अथवा पुष्पस्य निर्माणानन्तरम् एकमेव क्षणं तत्र तदनन्तरमेव तत्र तस्मिन् पुष्पे नीलरूपम् आगच्छति इति तेषां चिन्तनम्.
अस्तु महोदय, तर्हि लक्ष्यवाक्ये क्लेशः भवति खलु, यद्यपि पृथिव्यां यदि एकक्षणे गन्धवत्वं नास्ति तर्हि गन्धवत्वं सदा अस्ति इति.
तत्र गन्धवत्वं तत्र परमाणुषु अस्ति.
अस्तु,
पृथिव्याः परमाणुषु तत्र गन्धः सर्वदा वर्तते.
अस्तु अस्तु,
अतः तत्र परम्परया किमपि कुर्मः तस्मिन् अस्ति एव. हा अतः
अस्तु महोदय.
हा महोदय, प्रश्नः तु उत्तमः एव. तत्र नाम तत्र प्रथमक्षणे न भवति अथवा तत्र तस्य ध्वंस समये किं भवति इति, तस्मिन् विषये तत्र बहु किमपि उक्तमस्ति महोदय. किन्तु तत्र अतः तत्र किम् अस्ति, तत्र एषः वर्गः तत्र प्रारम्भिकवर्गः इति कृत्वा बहु क्लिष्टकर प्रश्नानां तत्र उत्तरं न, तत्र प्रत्येकस्मिन् विषये बहु किमपि उक्तमस्ति तत्र. किन्तु प्रौढग्रन्थेषु तेषां चर्चा भवति, अतः तत्र एतत्तु परिचयः वर्गः इति चिन्तयतु.
अस्तु महोदय.
हा अतः तत्र यद् जानामि अहं तद् वदामि, किन्तु अहमपि भवत् किमपि न जानामि महोदय तत्र. किन्तु तत्र ग्रन्थेषु यदि पश्यामः तत्र सूक्ष्मरूपेण चर्चा अस्ति महोदय.
अस्तु महोदय.
हा अतः तत्र किमस्ति, यदि तत्र भवन्तः चिन्तयन्ति तत्र एतत् तत्र फस्ट् स्टाण्डर्ड् अस्ति चेत् अहं सेकेण्ड् स्टाण्डर्ड् अपि न गतवान् अस्तु. किन्तु यूनिवर्सिटि तस्य अधिकं बहु किमपि अस्ति, किन्तु अहं केवलं तत्र फस्ट् स्टाण्डर्ड् पास् इति अपि न वक्तुं शक्नुमः, फस्ट् स्टाण्डर्ड् मध्ये आसन् इति.
अस्तु महोदय.
अतः तत्र बहु किमपि अस्ति महोदय, मम अपि तत्र सम्यक् ज्ञानं नास्ति तत्र. तत्र किम् उत्तरमस्ति अपि, तत्र अनेकानि मतानि अपि सन्ति, अतः तत्र अस्तु अस्मिन् सन्दर्भे एतदेव उत्तरम् इति केचन वदन्ति, अन्ये एतद् न स्वीकुर्वन्ति. अतः तत्र न्यायशास्त्रे एतदेव उत्तरम् इति अपि वक्तुं न वयं न शक्नुमः महोदय, तत्र यतोहि तत्र अनेके प्रौढाः अस्मिन् विषये गभीरचिन्तनं कृतवन्तः. अतः तत्र मम अस्मिन् विषये अल्पम् अल्पं ज्ञानम् अस्ति तावदेव.
धन्यवादः महोदय.
अस्तु अस्तु, तर्हि समीचीनमस्ति. तर्हि तत्र गृहपाठरूपेण तत्र अग्रिमे अग्रिमवर्गात् पूर्वं प्रेषयन्तु सर्वे तत्र चित्रं, तत्र मनसः लक्षणवाक्यस्य मानचित्रं, यथा तत्र कालस्य वयं कृतवन्तः तथा मनसः अपि सर्वे कुर्वन्तु. अग्रिमे वर्गे तत्र अग्रे सरामः. तत्र एकमेव पुटम् अस्ति, यदि तत् पठामः तत्र किं भवति, द्रव्याणां तत्र लक्षणं यदस्ति तस्य समाप्तिः भवति. तदनन्तरं तत्र गुणानां निरूपणम् अग्रे आगच्छति. अस्तु, तर्हि अत्र विरमाम. धन्यवादः, नमस्कारः.
धन्यवादः.